कक्षायाः आरम्भं कुर्मः। प्रथमं मङ्गलाचरणं कुर्मः। येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं। गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो। ॐ नमः पाणिनिकात्यायन पतञ्जलिभ्यः शब्दविद्यासम्प्रदाय प्रवर्तकेभ्यः नमो मुनिभ्यः नमो महद्भ्यः नमो गुरुभ्यः। पूर्वस्यां कक्षायाम् अस्माभिः संज्ञाप्रकरणे माहेश्वरसूत्राणि अधीतानि। तत्र ऐ वुण् ऋल् ऋक् एवोङ् अय्यौ छयवर ट्लन् न्यमगणनं जवै गडदश् जबगडदश् ख फ छ ठ थ चटतौ कपै षसर् हल् इति माहेश्वराणि सूत्राणि। माहेश्वरसूत्राणां प्रयोजनं किम् इति प्रश्ने कृते अनादिसंज्ञार्थानि इति वरदराजमहोदयेन उक्तम्। अनादिसंज्ञार्थानि इत्युक्ते अनादिप्रत्याहारार्थानि। प्रत्याहारं नाम किम्? प्रत्याहारस्य निर्माणं कथं कर्तव्यं माहेश्वरसूत्रेण इति अस्मिन् इति अद्यतनस्य कक्षायां वयं ज्ञास्यामः। येषाम् अन्त्या इतः येषाम् माहेश्वरसूत्राणाम् अन्तिमवर्णाः व्यञ्जनवर्णाः इत्संज्ञकाः भवन्ति। केन सूत्रेण? हलन्त्यम् इति सूत्रेण। हलन्त्यम् इति सूत्रम् अग्रिमसूत्रम् विद्यते। हकारादिषु अकारः उच्चारणार्थः इति उक्तम् मूले। हकारादिषु तर्हि हयवरट् इति सूत्रे हकारोत्तर अकारः यकारोत्तर अकारः वकारोत्तर अकारः विद्यते। एतेषां प्रयोजनम् किमपि अस्ति वा इति प्रश्ने कृते हकारादिषु अकारः केवलम् उच्चारणार्थः, परन्तु लण् मध्यस्थे लण् इति सूत्रे लकारोत्तर अकारः लण् इति सूत्रे लकारोत्तर अकारः इत्संज्ञकः, लण् मध्ये तु इत्संज्ञकः। तत् किमर्थम् इति अग्रे जानीमः। एतावत् अस्माभिः पूर्वस्यां कक्षायाम् अधीतम् इत्युक्ते माहेश्वरसूत्राणि अस्माभिः अधीतानि। माहेश्वरसूत्राणां प्रयोजनं व्याकरणशास्त्रे किमर्थमस्ति? यतोहि मुनित्रयस्य बहिर्भूतत्वात् अन्येषां तत्र उपेक्षा विद्यते प्रायः इति सर्वेषाम् इति पूर्वपक्षी किं प्रश्नं करोति। तर्हि सिद्धान्तः उच्यते, माहेश्वराणि सूत्राणि एतानि, माहेश्वरात् आगतानि एतानि सूत्राणि अनादिसंज्ञार्थानि। एतेषाम् अन्त्यवर्णाः इत्संज्ञकाः भवन्ति। इत् नाम काचित् संज्ञा। हकारादिषु अकारः उच्चारणार्थः, लण् मध्ये तु इत्संज्ञकः। मया पुनः पुनः उच्यते यतोहि बहवः विलम्बेन आगताः, अतः पुनः मया उक्तः। इदानीम् अस्माभिः एकं प्रधानविषयम् अध्येतव्यम्, सूत्रप्रभेदाः। तत्र ब्रह्मसूत्राणि विद्यन्ते, धर्मशास्त्रस्य सूत्राणि विद्यन्ते, वेदान्ते सूत्राणि विद्यन्ते। सूत्रस्य लक्षणं सूचनात् सूत्रम् इति अस्माभिः ज्ञातम्। सूत्रव्याकरणशास्त्रे सूत्राणां किमपि भेदः अस्ति वा? व्याकरणशास्त्रे सूत्राणां प्रभेदाः सन्ति वा? यदि सन्ति के ते प्रभेदाः? तदा उच्यते, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रमुच्यते। इति श्लोकः अस्ति। इत्युक्ते षड्विधानि सूत्राणि भवन्ति। संज्ञासूत्रं नाम संज्ञासंज्ञप्रत्यायकं सूत्रम्। एकं कार्यं कुर्मः, अग्रिमस्फोरकमध्ये गत्वा पुनः अत्र आगच्छामः। तत् अत्र उदाहरणानि सन्ति। अत्र पश्यतु, संज्ञासूत्रम् इति सूत्रप्रभेदः विद्यते। अष्टाध्याय्यां प्रथमाध्याये प्रथमपादे प्रथमसूत्रं विद्यते, वृद्धिरादैचिति। वृद्धिरादैचिति संज्ञासूत्रम्। तत्र संज्ञासूत्राणां कार्यं किम् इत्युक्ते, संज्ञासंज्ञप्रत्यायकं सूत्रम्। संज्ञासूत्रं किं करोति? संज्ञायाः नाम ददाति, तस्याः संज्ञायाः संज्ञिनः के इत्यपि वदति संज्ञासूत्रम्। उदाहरणं, भूवादयो धातवः इति तदपि स्वीकर्तुं शक्यते। इदानीं प्रश्नः, भूवादयो धातवः इति सूत्रे धातवः के? धातुसंज्ञा, धातुः नाम संज्ञा कस्य उच्यते? तदा उच्यते, भूप्रभृतयः वा सदृशाः भूवादयः, तेषामेव धातुसंज्ञा विधीयते इति भूवादयो धातवः इति सूत्रं वदति। तर्हि अत्र संज्ञा कः, संज्ञि कः इति प्रश्नः उच्यते। संज्ञा कः, संज्ञि कः? अत्र धातु इति संज्ञा विधीयते अनेन सूत्रेण, भूवादयो धातवः इति सूत्रेण धातु इति संज्ञा विधीयते। भूप्रभृतयः वा सदृशाः धातुपाठे निबद्धाः द्विसहस्रधातवः ये सन्ति, ते एव धातुसंज्ञां प्राप्नुवन्ति, ते एव अस्य सूत्रस्य संज्ञिनः इति उच्यन्ते। एवमेव वृद्धिरादैच् इति सूत्रे आद् ऐच् इति वर्णानां वृद्धिसंज्ञा विद्यते इति एतत् सूत्रं वदति। आद् ऐच्, आत् नाम किम्, ऐच् नाम किम् इति अनन्तरं तत् सूत्रविवरणसमये पश्यामः। परन्तु आकारस्य, ऐकारस्य, औकारस्य आदैच् इति संज्ञा विद्यते। आकारस्य, ऐकारस्य, औकारस्य वृद्धि इति संज्ञा। एवम् अत्र संज्ञा कः, संज्ञिनः के इति प्रश्ने कृते वृद्धिः नाम संज्ञा, आकारः, ऐकारः, औकारश्च संज्ञिनः विद्यन्ते। एवं संज्ञा च परिभाषा च, संज्ञासूत्रं नाम संज्ञासंज्ञप्रत्यायकं सूत्रम्। The Sanya Sutra is a type of sutra which introduces the Sanya, the name, and the Sanyi, the parts or the components which are called by that name. That is the purpose of a Sanya Sutra. Evam Dvitiyaha Prabhedaha परिभाषासूत्रम्। परिभाषासूत्रस्य उदाहरणानि सन्ति। इदानीम् उच्यते चेत् प्रायः अवगन्तुं क्लेशः भवति। यथामति प्रयत्नं करोमि। तत्र एकं सूत्रं स्वीकरोमि, षष्ठीस्थाने योगा इति। पाणिनिः किं करोति? परिभाषासूत्राणां सहायेन यत्र नियमः नास्ति तत्र नियमं करोति. इदानीं इको यणचि इति प्रायः सूत्रस्य परिचयः सर्वेषाम् अस्ति इति मन्ये. इको यणचि इति यञ्संज्ञाविधायकं सूत्रं, तत् विधिसूत्रमस्ति. इको यणचि इत्यत्र इकः इति सूत्रं विद्यते, इति पदं विद्यते. इकः इति पदं विद्यते, इकः यण् अचि इति पदत्रयं विद्यते. इकः इत्युक्ते इकः इति तस्य इकः इति शब्दस्य विभक्तिः का इति प्रश्ने कृते षष्टिविभक्तिः. षष्टिविभक्तिः अस्ति चेत् सूत्रे अस्माभिः कीदृशम् अर्थं करणीयम्. सूत्रस्य अर्थकरणे षष्टिविभक्तिः अस्ति चेत् सूत्रे, तर्हि अस्माभिः कीदृशः अर्थः करणीयः इति परिभाषासूत्रं वदति. एवं तत् अग्रे अपि स्पष्टं भवति. षष्टिस्थाने योग इति परिभाषासूत्रम्. परिभाषासूत्रस्य कार्यं किम्? यत्र नियमं नास्ति नियमकरणम्, अनियमे नियमकारिणी परिभाषा इति उच्यते. विधिसूत्रं तु कार्यसूत्रं. विधिसूत्रं नाम कार्यं. तत्र यागयज्ञादिसमये विधिः इति उच्यते. तत्र पूर्वमीमांसायां विधिः इति शब्दः भवति. विधिः नाम कर्म, कार्यम्. धर्मशास्त्रे अपि विधिः, धर्मशास्त्रविधिः इति, शास्त्रविधिः इति सर्वैः उच्यते. एवं विधिः नाम आङ्ग्लभाषायाम् आक्षन् सूत्रम् इति वक्तुं शक्यते. विधिसूत्रम् आदेशादिविधायकं सूत्रम्, कार्यकरणसूत्रं तत्. इदानीम् इको यणचि इति एकं सूत्रमस्ति, विधिसूत्रमस्ति. तत् किं करोति? यत्र यदि इक्वर्णः अस्ति चेत् अचि परतः इक्वर्णस्य स्थाने यण्वर्णः भवति इति विधास्यति. इक्वर्णस्य स्थाने यणं विधास्यति विधिसूत्रम्. अतः विधिसूत्रम् इति उच्यते. सो विधिसूत्रस्य आदेशादिकार्यम्, आदेशकार्यम्, आगमकार्यं, लोपकार्यम् इत्यादि कार्यं, दीर्घकरणं, नत्वकरणं, षत्वकरणम्, एवमेव विधिसूत्रस्य कार्यं भवति. संज्ञा च परिभाषा च विधिसूत्रं, नियमसूत्रम्. नियमसूत्रम् इत्युक्ते प्राप्तस्य विधेः नियामकम्. विधिः प्राप्तः, तस्मिन् विधौ यदि कश्चित् नियमः अपेक्षितः चेत्, ए स्पेशल् रूल् इन् केस् आफ् ए जनरल् रूल् इफ् इट् इस् रिक्वैर्ड्, देन् ए नियमसूत्र इस् अप्लैड् बै पाणिनि. प्राप्तस्य विधेः नियामकम्. इदानीं हरिशब्दः पतिशब्दः उभौ अपि इकारान्तशब्दौ, सर्वे जानन्ति. हरिशब्दस्य रूपं तृतीयाविभक्तौ हरिणा, हरिभ्यां, हरिभिः. पतिशब्दस्य रूपं तु पत्या, पतिभ्यां, पतिभिः इति भवति. किमर्थं पतिशब्दस्य रूपं पति तत्र पतिना इति न भवति इति अन्य तत् एकः विशेषसूत्रमस्ति. पतिशब्दस्य विषये विशेषसूत्रमस्ति. इदानीं पति शब्दस्य पत्या, पतिभ्यां, पतिभिः इति रूपं तृतीयाविभक्ति एकवचने पत्या इति भवति. तदनन्तरं सूत्रं विद्यते पतिस्समास एव इति. तदा उच्यते यदि पतिशब्दः समासे भवति. इदानीं श्रीपतिः इति एकः शब्दः विद्यते. श्रियः पतिः, श्रीपतिः इत्युक्ते भगवान् विष्णुः, श्रीपतिः. इदानीं श्रीपतिशब्दस्य तृतीयाविभक्त्यैकवचनं किम्? श्रीपतिना, न तु श्रीपत्या. श्रीपतिना श्रीपतिभ्याम श्रीपतिभिः एवं हरि शब्दस्यैव भवति श्रीपति शब्दः। अतः इदानीं पति शब्दस्य विषये सामान्य नियमः पत्या इति भवति इति केनचित् सूत्रेण प्राप्तः, परन्तु तत् एतस्य उपरि अस्माभिः विशेषनियमः अपेक्षितः। यदि पतिशब्दः समासान्ते विद्यते तर्हि पतिशब्दः हरिशब्दवत् भवति इति वक्तुम् अस्माकं पतिसमास एव इति सूत्रम् उच्यते। सो वी हेड् टु अप्लै अ स्पेशल् रूल् इन् द केस् आफ् अ समास आफ् इन् द केस् आफ् अ समास वित् पतिशब्द। Though there was a general rule which said that pati shabda becomes patya, hence this kind of a sutra is called as niyama sutram. You will have praptasya videhe niyamakam. Next type atidesha sutram iti agrima prabedaha vidyate. Atidesha sutre अतिदेशो नाम तत्र वेदान्तं ये जानन्ति ते प्रायः जानन्ति एतत् अतस्मिन् तद्बुद्धिः इत्यादिकं वदन्ति। एवमेव अन्यतुल्यत्वविधानम्, अन्यतुल्यत्वविधानं नाम इदानीम् अहं वदामि रामः सुन्दरः अस्ति, लक्ष्मणः रामवत् अस्ति इत्युक्ते लक्ष्मणोऽपि सुन्दरः एव इति अस्माकं निर्णयः। इदानीं रामस्य गुणाः रामस्य गुणविषये सौन्दर्यं, रामस्य सौन्दर्यं यदस्ति तद् अस्माभिः लक्ष्मणस्य उपरि अपि आरोपक्रियते। एवम् अन्यतुल्यत्वविधानं वत् इत्यादि शब्देन क्रियते। एवमेव त्रिज्वत् क्रोष्टुः इति एकं सूत्रमस्ति, स्थानिवत् आदेशो अनल्विधौ। तस्य सूत्रस्य अर्थविवरणम् इदानीं नापेक्षितम्, यदा सूत्रमागच्छति तदा अवश्यं वक्ष्यामि। परन्तु स्थानिवत् आदेशो अनल्विधौ, आदेशः स्थानिवत् स्यात् इति सूत्रार्थः। तर्हि स्थानिनः ये गुणाः सन्ति तद् आदेशे आरोप्यते, आदेशे तुलना क्रियते इति सम्भवति। एवम् अन्यतुल्यत्वविधानम् इति अतिदेशसूत्रस्य लक्षणम्। अधिकारसूत्रम्, एकत्र उपात्तस्य अन्यत्र व्यापारः इत्युक्ते अधिकारसूत्रं नाम इदानीं संहिताधिकारः इति विद्यते। संहिताधिकारः एकं कार्यं कुर्मः, अष्टाध्यायीम् उद्घाटयामः, तत्र षष्ठाध्याये षष्ठाध्याये प्रथमपादे द्विसप्ततितमसूत्रम् 6172 संहितायाम् इति अस्ति, लब्धं वा? षष्ठाध्याये प्रथमपादे द्विसप्ततितमसूत्रम्, तत्र पश्यन्तु एतद् एकम् अधिकारसूत्रम् इति उच्यते। इदानीम् अधिकारसूत्रस्य कार्यं किम् इत्युक्ते, अधिकारसूत्रं किं करोति, संहितायाम् इति पदम् अग्रिमसूत्रे, अग्रिमसूत्रं विद्यते छेच, आङ्माङ्गोश्च इत्यादि सूत्राणि विद्यन्ते, अग्रिम सूत्राणि विद्यन्ते, किं भवति संहितायाम् इति अधिकारः किं करोति, छेच इत्यत्र गच्छति, संहितायाम् छेच, संहितायाम् आङ्माङ्गोश्च, संहितायाम् दीर्घात्, संहितायाम् पदान्ताद्वा, संहितायाम् इकोयणचि, संहितायाम् यचोयवायावः इति यत्र यत्र तस्य अधिकारः विद्यते तत्र तत्र सः सूत्रम् अग्रे गच्छति, अग्रे गत्वा स्वपदं तत्र उपस्थापयति, अनन्तरम् अर्थकरणे सौलभ्यं जनयति। इदानीम् उदाहरणार्थम् IAS आफीसर्स् भवन्ति भारते, एकस्य IAS आफीसर् महोदयस्य अधिकारस्य सीमा विद्यते, सः प्रायः कर्णाटकप्रान्तस्य IAS आफीसर् चीफ् मिनिस्टर् एव स्थापयतु, चीफ् मिनिस्टर् सः कर्णाटकप्रान्तस्यैव चीफ् मिनिस्टर्, अन्यः अन्यस्य इदानीं प्रधानमन्त्रिणः अधिकारं समग्रभारते विद्यते। एवमेव अधिकारसूत्रम् एकत्र एव तिष्ठति, प्रधानमन्त्री तु देहल्यां भवति नो चेत् एकस्मिन् स्थले एव भवति, परन्तु तस्य अधिकारबलेन सर्वे तत्र सेवकाः वा सर्वे कार्यं कुर्वन्ति। एवं संहितायामिति सूत्रस्य अधिकारबलेन अन्यानि सूत्राणि किं कुर्वन्ति, संहितासूत्रस्य सहायं स्वीकृत्य संहितापदस्य अर्थं स्वसूत्रे उपस्थाप्य अर्थं जनयति। एवमेव प्रत्ययः कारके बहूनि अधिकारसूत्राणि सन्ति, तद्विषये अग्रे ज्ञातुं शक्यते। इदानीं प्रधानतया संज्ञाप्रकरणे इदानीं वयं संज्ञाप्रकरणे स्मः। संज्ञा नाम किं, संज्ञासूत्रं नाम किं, संज्ञासंज्ञप्रत्यायकं संज्ञासूत्रम् इति जानीमः चेत् तेनैव अलम्, परन्तु मया विस्तरेण उक्तं तदग्रे अपि स्पष्टं भवति। इदानीं प्रथमसूत्रं प्रति गच्छामः। प्रधानः विषयः इदानीम् उच्यते, हलन्त्यम् इति प्रथमसूत्रं लघुसिद्धान्तकौमुद्यां विद्यते। हलन्त्यम् इति सूत्रम् अष्टाध्याय्यां कुत्र विद्यते इति ज्ञानं तु हलन्त्यम् इति पार्श्वस्थसङ्ख्याद्वारेण ज्ञायते। तत्र 133 इति संख्या विद्यते, 133 इति संख्या विद्यते, प्रथमसंख्या अध्यायस्य संख्या, द्वितीयसंख्या पादस्य संख्या, तृतीयसंख्या सूत्रस्य संख्या। प्रथम त्रीणि त्रीणि इत्युक्ते प्रथमाध्यायस्य तृतीयपादस्य तृतीयं सूत्रम् अष्टाध्याय्याम् इति विद्यते। अष्टाध्यायीम् उद्घाट्य पश्यन्ति चेत् प्रथमाध्यायस्य तृतीयपादस्य तृतीयसूत्रम् हलन्त्यम् इति भवति। इदानीं प्रथमं सूत्रस्य अर्थकरणं कथं कर्तव्यम्, सूत्रस्य ज्ञानम् इत्युक्ते सूत्रपरिचयः नाम सोपानानि विद्यन्ते अस्माकं व्याकरणशास्त्रे। प्रथमं सूत्रं दृष्ट्वा कुत्र अस्ति इदं सूत्रम् अष्टाध्याय्याम् इत्येव प्रथमम् अस्माकं ज्ञानं भवेत्। प्रथमाध्यायस्य तृतीयपादस्य तृतीयं सूत्रं हलन्त्यम् इति सूत्रम्। तदनन्तरं किं कुर्मः इत्युक्ते सूत्राणां पदच्छेदः क्रियते। हलन्त्यम् इत्यत्र हल् अन्त्यम् इति पदद्वयं विद्यते, द्विपदात्मकं सूत्रं, द्विपदं सूत्रं, सूत्रे पदद्वयं विद्यते इति वक्तुं शक्यते। यदा पदद्वयं पदच्छेदकरणानन्तरम् अस्माभिः सूत्रस्थितपदानां विभक्तिज्ञानम् अस्माकं कृते आवश्यकं भवति। हल् अन्त्यम् इति पदच्छेदः क्रियते। हल् इत्यस्य विभक्तिः का? प्रथमा विभक्तिः एकवचनम्, हल् हलौ हलः इति भवति। हल् हलौ हलः, हल् इति प्रथमा विभक्ति एकवचनम्। अन्त्यम्, अन्त्यम् अन्त्ये अन्त्यानि इति प्रथमा विभक्ति एकवचनम्। सूत्रस्य विभक्तिज्ञानम् अपेक्षितम्। विभक्तिज्ञानेन अस्माभिः संज्ञासंज्ञीभावस्य ज्ञानमपि प्रायः यत्र संज्ञासूत्रं भवति इदानीं सूत्रस्य विभक्तिज्ञानानन्तरं सूत्रप्रभेदज्ञानं किञ्चित् अर्थं यदि ज्ञायते चेत् तद् अर्थं दृष्ट्वा किं क्रियते इति ज्ञात्वा सूत्रप्रभेदज्ञानमपि कर्तुं शक्यते। इदानीं सूत्रस्य अर्थः साक्षात् स्वीकुर्मः, लघुसिद्धान्तकौमुद्यां यदस्ति तत् स्वीकुर्मः। तत्र किं लिखितं विद्यते? उपदेशे अन्त्यं हल् इत् स्यात् इति सूत्रार्थः विद्यते। तदनन्तरम् उपदेशपदस्य अर्थः विवृतः हल् हल् इति लकारान्तनपुंसकलिङ्गशब्दः वा लकारान्तपुल्लिङ्गशब्दः हल् हलौ हलः। आम् पुल्लिङ्गः। उपदेशे अन्त्यं हल् इति स्यात्। इदानीं तत्र वाक्यं पश्यतु। सूत्रस्य वृत्तिः, वृत्तिः नाम लघुकौमुद्यां वृत्तिर्नाम अर्थः। सूत्रस्य वृत्तिः उपदेशे अन्त्यं हल् इति स्यात्। हलन्त्यम् इति सूत्रस्य वृत्तिः, अर्थः उपदेशे अन्त्यं हल् इति स्यात् इति भवति। उपदेशपदस्य विवरणम् उपदेशे आद्योच्चारणम् इति वाक्येन क्रियते। तदनन्तरं किञ्चित् अग्रिमविषयमपि वरदराजमहोदयेन उक्तं, सूत्रेषु अदृष्टं पदं सूत्रान्तरात् अनुवर्तनीयं सर्वत्र, एवं मूले अस्ति। इदानीम् एकैकस्य वाक्यस्य अर्थं ज्ञास्यामः। उपदेशे अन्त्यं हल् इति स्यात्। इदानीम् उपदेशे अन्त्यं हल् इति स्यात्, इति स्यात् इति किमपि स्यात्, तर्हि किमपि संज्ञा प्रायः उच्यते इति प्रायः एतत् संज्ञासूत्रम् इति अस्माभिः ऊहा कर्तुं शक्यते। तर्हि संज्ञिनः के इत्यपि अस्माभिः ज्ञातव्यं भवति। इदानीं संज्ञा का? अत्र इत् इति संज्ञा विधीयते। केषाम् इत् इति संज्ञा विधीयते? अन्त्यहल् वर्णानाम्। अन्त्यं हल् इति स्यात्। अन्त्यहल् नाम व्यञ्जनम्, व्यञ्जनवर्णः इति आगच्छति। इदानीम् उपदेशे उपदेशावस्थायां यदन्त्यं हल् तत् इत्संज्ञं भवति। इदानीं पश्यतु उपदेश अत्र माहेश्वरसूत्रस्य विषये एकनिमिषम् माहेश्वरसूत्रस्य विषये अत्र अन्त्यं हल् ये सन्ति तेषाम् इत्संज्ञा भवति इति अयं सूत्रः कथयति। इदानीम् उपदेशः नाम किम् इति प्रश्ने कृते आद्य उच्चारणम्, आद्य उच्चारणं नाम केन इति प्रश्ने कृते पाणिनिशिष्याः नो चेत् पाणिनिकात्यायन इत्यादीनां माहेश्वर इद शिवपाणिनि प्रभृतीनाम् आद्यम् उच्चारणम् उपदेशः इति उच्यते। आद्यञ्च तत् उच्चारणम् आद्योच्चारणम् तत्र अत्र दोषः अस्ति, आधोच्चारणम् इति अस्ति, आद्योच्चारणम् इति भवेत्। एवम् इदानीं पुनः अत्र आगच्छामः। उपदेशः नाम किम् इत्युक्ते आद्योच्चारणम्। आद्य उच्चारणं नाम कैः उच्चारितम् इत्युक्ते इति प्रश्ने कृते शिवप्रभृत्यादीनां पाणिनिशिष्यानां पाणिनिना उच्चारणं क्रियते चेत् ते एव उपदेशाः इति उच्यन्ते। अस्तु, तर्हि एवमेव ज्ञास्यामः। प्रथमतया उच्चारितः शब्दः, शब्दराशिः उपदेशशब्देन गृह्यते। एवं यत्र इदानीं माहेश्वरसूत्रस्य उपदेशत्वं सम्पन्नम्। माहेश्वरसूत्रस्य उपदेशं यदा सम्पन्नं भवति तदा किं भवति? माहेश्वरसूत्राणाम् अन्त्यवर्णानाम् इत् इति संज्ञा अनेन सूत्रेण निधीयते। इदानीं पुनः एकः प्रश्नः, अग्रिमप्रश्नः भवति। भवद्भिः हलन्त्यम् इति पदद्वयमेव सूत्रे विद्यते, विपदात्मकं सूत्रम् इति उक्तम्, किन्तु तस्य वृत्तिः तु उपदेशे अन्त्यं हल् इति स्यात् इति भवद्भिः उक्तम्। अतिमहती वृत्तिः भवत्या उक्तम्। एतत् कथम् उपपद्यते इति प्रश्नः क्रियते। तदा एव वरदराजमहोदयः आकाङ्क्षां पूरयति, सूत्रेषु अदृष्टं पदं सूत्रान्तराद् अनुवर्तनीयम् इति वरदराजमहोदयः वदति। सूत्रेषु, अस्मिन् सूत्रे, हलन्त्यम् इति सूत्रे अदृष्टं पदम्। इदानीम् अदृष्टम्, अदृष्टानि पदानि कानि? उपदेशे इति तु सूत्रे नास्ति, अन्त्यं तु अस्ति, हल् अस्ति, इत् इति नास्ति। पदद्वयम् उपदेशे इति एकं पदम्, इत् इति एकं पदम् अस्मिन् सूत्रे नास्ति। तर्हि कथम् आगतम्? अस्य सूत्रस्य अर्थकरणे कथम् आगतम् इति प्रश्नः। तदा उच्यते, सूत्रेषु अदृष्टम् अवर्तमानं पदम् अस्माभिः सूत्रान्तरात् पूर्वसूत्रात् यथायथं कदाचित् अनुवर्तनीयं भवति, अनुवृत्त्या स्वीकरणीयं भवति सर्वत्र। सर्वत्र इत्युक्ते यत्र यत्र अस्माभिः अदृष्टं पदम् अस्माभिः तत्र उपलभ्यते तदा अस्माभिः किं करणीयम्? सूत्रान्तरात् अनुवृत्त्या अस्माभिः तत्पदस्य स्वीकारकरणीयः। इदानीं प्रथमाध्यायस्य तृतीयपादस्य तृतीयं सूत्रं हलन्त्यम् इति विद्यते। यदि चौकाम्बा पुस्तकम् अस्ति चेत् भवन्तः पश्यन्तु, प्रथमाध्यायस्य तृतीयपादस्य द्वितीयं सूत्रम् उपदेशे अजनुनासिक इत् इति विद्यते। उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इति पदं स्वीकृत्य, इत् इति पदं स्वीकृत्य उपदेशे हलन्त्यं हल् अन्त्यम् इत् इति आगच्छति। सर्वैः सावधानतया द्रष्टव्यम्। एतत् प्रधानः अंशः, फोकस् भवितव्यम्। अस्माभिः प्रथमाध्यायस्य तृतीयपादे द्वितीयं सूत्रं द्रष्टव्यम्। द्वितीयं सूत्रम् उपदेशे अजनुनासिक इत् इति अस्ति। तत्र उपदेशे अजनुनासिक इत् इति सूत्रात् उपदेशे इति पदम्, इत् इति अन्तिमं पदम् अनुवृत्त्य हलन्त्यम् इति सूत्रे आगच्छति। एवं हलन्त्यम् इति सूत्रार्थकरणसमये उपदेशे हल् अन्त्यम् इत् इति चत्वारि पदानि उपलभ्यन्ते। एवं चतुर्णां पदानां साहाय्येन अस्माभिः उपदेशे अन्त्यं हल् इत् स्यात् इति अस्माभिः वृत्तिः सम्पादितः। एवं వరదరాజః కథయతి సూత్రేషు అదృష్టం పదం సూత్రాంతరాత్ అనువర్తనీయం సర్వత్ర ఏతదేవ అనువృత్తిః ఇతి ఉచ్యతే. తత్ర అష్టాధ్యాయ్యాం చౌకాంబా పుస్తకం యది అస్తి చేత్ కిం భవతి తత్ర ఉపదేశే అజనునాసిక ఇతి ఇత్యత్ర పార్శ్వే ఏకా సంఖ్యా విద్యతే 9 ఇతి తత్ అవగమ్యతే వా. సయేవ అనువృత్తి సంఖ్య. అనువృత్తి సంఖ్య ఇత్యుక్తే ఉపదేశే అజనునాసిక ఇతి ఇది సూత్రం నవమ సూత్ర పర్యంతం ఉపదేశే ఇతి పదద్వయం నవమ సూత్ర పర్యంతం అనువృత్తిం ప్రాప్నోతి. ఉపదేశే ఇతి బోల్డ్ లెటర్స్ మధ్య ప్రాయః స్యాత్. యది చౌకాంబా పుస్తకం అస్తి చేత్ ఉపదేశే ఇతి బోల్డ్ లెటర్స్ మధ్య స్యాత్. అస్తి వా. హా, బోల్డ్ లెటర్స్ మధ్యే ఇదాని పదద్వయం విద్యతే ఉపదేశే అజనునాసికే ఇతి పదద్వయం ఉపదేశే ఇతి ఏకం పదం ఇతి ఏకం పదం బోల్డ్ లెటర్ మధ్య అస్తి. తద్ బోల్డ్ లెటర్ వర్డ్ కిం భవతి తస్య పదస్య అనువృత్తిః హలంత్యం ఇది సూత్రే భవతి. ఇదానీం ఏవం చ ఏవం ఉపదేశే అంత్యం హల్ ఇత్ స్యాత్ ఇది సూత్రార్థః సంపద్యతే. సో పునః పశ్యామః హలంత్యం ఇది సూత్రం విద్యతే. సూత్రస్య పార్శ్వస్థ సంఖ్యా అష్టాధ్యాయీ సంఖ్యా విద్యతే. ప్రథమ సంఖ్యా పాదస్య సంఖ్య అధ్యాయస్య సంఖ్యా ద్వితీయ సంఖ్యా పాదస్య సంఖ్యా తృతీయ సంఖ్యా సూత్రస్య సంఖ్యా. సూత్రం కుత్ర అస్తి ఇతి దృష్ట్వా సూత్ర అష్టాధ్యాయీ ఉద్ఘాట్య సూత్రం అస్మాభిః ద్రష్టవ్యం. సహ అభ్యాసః అస్మాభిః కరణీయః. నోచేత్ సూత్రం కుత్ర అస్తి ఇత్యేవ న జ్ఞాస్యతే. గోపాల్ మహోదయః ప్రశ్నం పృచ్చతి రెఫరెన్స్ పుస్తకం కుత్ర అస్తి ఇతి. మహోదయ కృపయా అష్టాధ్యాయీ సూత్రపాఠ ఇతి చౌకాంబా సురభారతి పుస్తకం విద్యతే. తత్ర జయలక్ష్మి ఇండాలజికల్ స్టోర్ మధ్యే లభ్యతే ఇతి సర్వే వదంతి చెన్నై మధ్యే. ఆన్లైన్ మధ్యే అపి లభ్యతే. పరంతు ఆన్లైన్ మధ్య అష్టాధ్యాయీ టెక్స్ట్ ఇతి లభ్యతే కిమపి పీడిఎఫ్ ఫైల్ లభ్యతే. తదపి స్వీకర్తుం శక్యతే. పరంతు అనువృత్తి జ్ఞానం ఇదానీం సాఫ్ట్ కాపీ అస్య కక్షానంతరం ప్రాయః ప్రేషయితుం శక్యతే మయా. ఇదానీం సాఫ్ట్ కాపీ మమ ఇదానీం హస్తలభ్యం నాస్తి. పుస్తకస్య నామ కిం? అష్టాధ్యాయీ సూత్రపాఠః. అస్య కక్షాయాః కృతే పుస్తకద్వయం అపేక్షితం భవతి. ఏకం అష్టాధ్యాయీ సూత్రపాఠః చౌకాంబా ప్రకాశం ప్రాయః 25 రూప్యకాణి ఏవ. లఘు సిద్ధాంత కౌముదీ పుస్తకం. పుస్తకద్వయం అపేక్షితం భవతి కక్షా కృతే. కృపయా సర్వే ఆనయంతో ఇతి ప్రార్థయే. యది సాఫ్ట్ కాపీ మమ సమీపే అస్తి తత్ర తత్ ప్రేషయామి. అవశ్యం ప్రేషయామి. ఇదానీం ఉపదేశే అంత్యం హల్ తత్ర పదచ్ఛేదః కరణీయః. తదనంతరం సూత్రం కుత్ర అస్తి ఇతి జ్ఞాత్వా పదచ్ఛేదః కరణీయః. పదానాం విభక్తి జ్ఞానం అపేక్షితం. సూత్రే కతి పదాని సంతి ఇతి ఇత్యపి జ్ఞానం అపేక్షితం. తదనంతరం సూత్రేషు యది సంధిః అస్తి చేత్ సంధి విచ్ఛేదః, సమాసః అస్తి చేత్ సమాస విచ్ఛేదః ఇత్యాదికమపి జ్ఞాతవ్యం. తత్ అస్మిన్ సూత్రే సమాసః నాస్తి ఇతి కారణేన మయా ససోపానః మయా న ఉక్తః. పరంతు తదపి ఆగచ్చతి అగ్రే. అనంతరం అస్మాభిః సూత్రస్య అర్థం కథం కరణీయం ఇత్యపి జ్ఞాతవ్యం భవతి. యది షష్ఠి విభక్తిః అస్తి చేత్ కథం అర్థం కరణీయం, సప్తవిభక్తిః అస్తి చేత్ కథం కరణీయం, ద్వితీయ అస్తి చేత్ కథం కరణీయం. సూత్రపదానాం విభక్తిః అర్థకరణస్య ఉపయోగాయ సద భవతి. తదనంతరం వృత్తిజ్ఞానం. తదనంతరం ఉదాహరణమస్తి చేత్ ఉదాహరణం. ఇదానీం ఏతత్ సంజ్ఞాసూత్రమస్తి అతః ఇతి సంజ్ఞా విధీయతే అనేన సూత్రేణ उपदेशे अन्त्यं हल्लित् स्यादिति वृत्तिः एवं वृत्तिः कथम् आगतम् इत्यपि अस्माभिः दृष्टम्। इदानीं पुनः प्रश्नः समुदेति किं नाम उपदेशत्वं तत्तु मया उक्तं शिवपाणिनिप्रवृत्तीनाम् आद्य उच्चारणेनैव उपदेशः इति उच्यते। तदा अन्यः श्लोकः अस्ति तत्र लघुसिद्धान्तकौमुदी पुस्तकमस्ति चेत् अधः व्याख्यानमस्ति व्याख्याने एकं श्लोकम् अस्ति एकः श्लोकः अस्ति अस्ति वा न वा इति पेज् नम्बर् 10 गीता प्रेस् बुक् मध्ये धातुसूत्रगणोनादि वाच्यलिङ्गानुशासनम् वाच्य इति अस्ति वाक्य इति अपि सर्वे वदन्ति आगमप्रत्यादेशाः उपदेशाः प्रकीर्तिताः इत्युक्ते धातुसूत्रगण उणादि वाक्यम् इत्युक्ते पाणिनि महाभाष्यवाक्यं वा यत्किमपि लिङ्गानुशासनम् आगमप्रत्यादेशाः उपदेशाः प्रकीर्तिताः आगमाः आदेशाः एते उपदेशाः प्रकीर्तिताः इति तत्र व्याख्यानकर्तारः वदन्ति। परन्तु दीक्षितैः भट्टोजीदीक्षितैः सिद्धान्तकौमुद्यां तु उपदेशः आद्योच्चारणम् इत्येव स्वीकृतम्। पेज् नम्बर् इन् एलस्के मीनासुदरेशन् महाभागा प्रस्तुतवती दश पेज् नम्बर् 10 वा तत्र नूतनं पुस्तकं पुरातनपुस्तकमिति अस्ति पेज् नम्बर् 10 नूतनपुस्तके तत् श्लोकः अत्रैव अस्ति किल स्लैड् मध्ये। इदानीं व्याख्यानद्वयमस्ति धातुसूत्रगणोनादि वाक्यलिङ्गानुशासनम् एते उपदेशाः प्रकीर्तिताः इति परिगणनं कृतम् अस्मिन् श्लोके। परन्तु सः परिगणनं सर्वैः न अङ्गीक्रियते तत् परिगणनं सर्वैः न अङ्गीक्रियते। दीक्षिताः किं वदन्ति उपदेशः आद्योच्चारणं तदेव मया उक्तम् आद्योच्चारणं नाम किम् इति। इदानीं तर्हि अन्तिम अस्माकम् इदानीं ज्ञानं किम् अभवत् इत्युक्ते माहेश्वरसूत्रेषु प्रत्येकं सूत्रे अन्त्यस्य व्यञ्जनाक्षरस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा प्राप्ता इत्येव अवगमनम् अभवत्। इदानीं द्वितीयसूत्रं प्रति गच्छामः अदर्शनं लोपः इति। अदर्शनं लोपः इत्यत्र सङ्ख्या किम् अस्ति एकम् एकं षष्टि इति अस्ति प्रथमपादस्य प्रथमाध्यायस्य प्रथमपादस्य षष्टितमसूत्रम् अदर्शनम् इति अदर्शनं लोपः इति पदच्छेदः अदर्शनम् इति प्रथमाविभक्त्यैकवचनं लोपः इति प्रथमाविभक्त्यैकवचनं सूत्रस्य वृत्तिः प्रसक्तस्य अदर्शनं लोपसंज्ञं स्यात् इति लोपसंज्ञा विधीयते। अनेन सूत्रेण किं क्रियते लोपसंज्ञा विधीयते एतदपि संज्ञासूत्रमेव अस्ति। अस्मिन् सूत्रे पदद्वयं विद्यते अदर्शनं लोपः इति। तर्हि अस्माभिः अदर्शनं लोपः इति सूत्रं स्वीकुर्मः अष्टाध्याय्यां 1160 सूत्रे गच्छामश्चेत् अदर्शनं लोपः इति सूत्रं स्वीकुर्मः। ततः पूर्वं स्थानिवदादेशो अनल्विधौ इति एकं सूत्रमस्ति। स्थाने अन्तरतमः इत्यपि एकं सूत्रमस्ति। स्थाने अन्तरतमः इति 50th सूत्रं पञ्चाशत्तमसूत्रं स्थाने अन्तरतमः इति सूत्रम्। स्थाने अन्तरतमः इति सूत्रात् स्थाने इति पदं सप्तमीविभक्तौ अस्ति। तत्पदं षष्टीविभक्तिविपरिणामेन स्थानस्य प्रसक्तस्य इत्युक्ते स्थानस्य कदाचित् प्रसक्तस्य अस्मिन् स्थाने इन् द पर्टिक्युलर् काण्टेक्स्ट् दट् इस् वाट् इस् प्रसक्तस्य स्थानस्य इति अनुवर्तनं भवति इति पदस्य। एवं प्रसक्तस्य नाम शास्त्रतः अर्थतः वा प्राप्त उच्चारणस्य इत्यर्थः। प्रसक्तस्य अदर्शनम् అదర్శనం. ఇదానీ దృష్దాతోః ప్రాయః నేత్రేంద్రియ సంబంధః ఏవ స్థాప్యతే అస్మాకం లోకే. పరంతు అత్ర అదర్శనం లోపః ఇతి సూత్రే దృష్దాతోః జ్ఞాన సామాన్యార్థకత్వం స్థాప్యతే ఉపస్థాప్యతే అత్ర. దృష్దాతోః అత్ర శబ్దశాస్త్రం, వ్యాకరణశాస్త్రం నామ శబ్దశాస్త్రం, అతః శబ్దస్య ప్రాధాన్యం. అత్ర దృష్దాతోః న కేవలం దర్శనస్య పరంతు శ్రవణేంద్రియస్యాపి స్వీక్రియతే. ఇత్యుక్తే జ్ఞాన సామాన్యార్థకత్వం అత్ర దృష్టాతో స్వీక్రియతే. వేదాంతేపి పరోక్షః తత్ర పరోక్షః ప్రత్యక్షః ఇత్యాది దృష్టాతో ఇంద్రియార్థ దర్శనం, ఇంద్రియద్వారా దర్శనం ఇత్యేవ స్వీక్రియతే. కేవలం నేత్రద్వారా దర్శనం ఇది నైవ అంగీక్రియతే. తథైవ దృష్దాతోః జ్ఞాన సామాన్యార్థకత్వాత్ అత్ర ఉచ్చారణస్య ఏవ నిషేధః ఇతి భావః. యతో హి అత్ర తు వ్యాకరణశాస్త్రం నామ శబ్దశాస్త్రత్వం, శబ్దశాస్త్రం యథా అత్ర అదర్శనం లోపః ఇత్యుక్తే ప్రసక్తస్య ఇత్యుక్తే శాస్త్రతః అర్థతః ప్రాప్త ఉచ్చారణస్య పదస్య. యది అదర్శనం భవతి ఇత్యుక్తే ఉచ్చారణం న శూయతే, యది న యది ఉచ్చారణం న భవతి తర్హి తస్య లోపః సంపన్నః ఇతి ఉచ్యతే. ఇత్యుక్తే యది అస్మాభిః ఉచ్చారణం కర్తవ్యం తత్ర అస్మాభిః ఉచ్చారణం నైవ క్రియతే తర్హి లోపః ఇతి ఉచ్యతే, అదర్శనం లోపః. ఇదానీ వరదరాజేన ఏతస్య సూత్రస్య ఉల్లేఖః అత్ర కిమర్థం కృతం ఇత్యుక్తే, ఇదానీ మాహేశ్వర సూత్రేషు ఇత్సంజ్ఞా అస్మాభిః అంతిమ వర్ణానాం ఇత్సంజ్ఞా అస్మాభిః ఇత్సంజ్ఞా దత్త. తేన ఇత్సంజ్ఞాకరణేన కిం ప్రయోజనం ఇతి ప్రశ్నే కృతే లోపః ఏవ ప్రయోజనం ఇతి తస్య లోపః ఇతి సూత్రం వదతి. అగ్రిమ సూత్రం తస్య లోపః, తస్య లోపః ఇది సూత్రే సూత్రస్య పార్శ్వే ఏకం త్రీణి నవ ఇత్యుక్తే ప్రథమాధ్యాయస్య తృతీయపాదస్య నవమం సూత్రం పదద్వయం విద్యతే. తస్య లోపః ఇతి, తస్య ఇతి షష్ఠీ ఏకవచనం, లోపః ఇతి ప్రథమైకవచనం. తస్య ఇతః లోపః స్యాత్ ఇతి. ఇదానీం పునః తత్ర ప్రథమాధ్యాయస్య తృతీయపాదం యది భవంతః ఆగచ్చంతి చేత్ నవమసూత్రపర్యంతం తస్య ఇత్ ఉపదేశ అనునాసిక ఇత్ ఇత్యస్మాత్ ఇత్ ఇతి అనువర్తి తత్ర ఇతి ఇతి ప్రథమావక్తౌ అస్తి. పరంతు తద్ విభక్తి విపరిణామేన ఇతః ఇతి పరిణామం స్వీకృత్య ఆగచ్చతి. కుత్ర ఆగచ్చతి? తస్య లోపః ఇతి సూత్ర పర్యంతం ఆగచ్చతి. తదా కిం భవతి? తస్య ఇత్ ఇత్ కిం అభవత్? ఇదానీం ఇతః ఇతి అభవత్, తస్య ఇతః లోపః స్యాత్. కిమర్థం ఏవం ఉచ్యతే? నాదయో అనాద్యర్థాః. ఇదానీం తర్హి యది ఇదానీం మయా ఏకం లోక ఉదాహరణం పశ్యామః. అహం ఏకం మనుష్యం, మమ గృహం ఆగచ్చతు ఇతి ఆహ్వానం దాస్యామి. యదా సహ మమ గృహం ప్రతి ఆగచ్చతి తదా వదామి కృపయా గచ్చతు 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 ఇతి వదామి. కిమర్థం ఆగతం? గచ్చతు భవాన్ ఇతి యది వదామి చేత్ తర్హి పార్శ్వస్థ మాం పృచ్చతి కిమర్థం భవద్భిః తం ఆహూతం? ఆగమనానంతరమేవ ఝటితి ప్రేషితం, కిమర్థం ఆహూతం ఇది పార్శ్వస్థ పృచ్చతి. తదా మయా ఉచ్యతే కిమపి కారణం ఉచ్యతే. అత్ర వ్యాకరణే అపి ఏవమేవ ప్రశ్నః. తస్య ఇతః లోపః స్యాత్. ప్రథమం తు భవద్భిః இச்சன்யா எவ நாவசியகம் ஆசீத் ஸ்தாபிதம் ஸ்தாபயித்வா இத்திதி சன்யா கிருதம் இத்திதி சன்யா கிருதா ததனந்தரம் கிம் வதந்தி பவந்தா இதாம் லோபஹ பவதி இதி பவந்தா வதந்தி கிமர்த்தம் ஸ்தாபனம் புனஹ கிமர்த்தம் லோபஹ இதி உச்சி பிரஷ்ன க்ரியதே தரா உச்சியதே நாதயோ அநாத்யர்த்தாஹ அஸ்மாகம் கிருதே பிரத்யாஹாராணாம் அபேக்ஷா அஸ்தி பிரத்யாஹார அன் இத்யாதி பிரத்யாஹாராணாம் கரணார்த்தம் அஸ்மாகம் இத்சன்யா ஆவசியகஹ இத்சன்யா ஆவசியகி ததேவ உச்சியதே தஸ்ய இதோ லோபஸ்யாத் நாதயோ அநாத்யர்த்தாஹ ஏதே இதஹ அநாதி பிரத்யாஹாரார்த்தம் ஆவசியகம் இதி உச்சியதே வரதராஜேன. இதானிம் ஹரிதவர்ணே கிமபி மயா லிகிதம் அஸ்மின் ஸ்போரகே தத்து அக்ரே வக்ஷாமி தத் இதானிம் ந வக்தும் சக்னோமி பிராயஹ தத் இதானிம் உச்சதே சேத் ததபி ந அவகச்சந்தி பவந்தஹ அதஹ அக்ரே வக்ஷாமி தத் தஸ்ய ஞாபனார்த்தமேவ மயா கிரீன் கலர் ஸ்தாபிதம் புனஹ அத்ர ஆகத்ய அவசியம் வக்ஷாமி. இதானிம் தஸ்ய இதஹ லோப ஸ்யாத் இதி தத்திதி பதஸ்ய எதத்து மயா உக்தம் ரிபீட்டட் ஸ்லைட் பவதி ஏவம் அஸ்மாபிஹ இதானிம் சூத்ரத்ரயம் அதீதம் ஹலந்த்யம் அதர்சனம் லோபஹ தஸ்ய லோபஹ கிம் ஆகதம் இத்யுக்தே மாஹேஸ்வர சூத்ராணாம் அந்திம மாஹேஸ்வர சூத்ரேஷு வித்யமானஹ அந்திம வர்ணஹ இத்சன்யகோ பவதி சாயேவ இத்சன்யகஹ லோபஹ பவதி இதி அஸ்மாபிஹ ஞாதம். இதானிம் ஆதிரந்தேன சஹேதா இதி சூத்ரம் பிரதி ஆகச்சாமஹ. ஆதிரந்தேன சஹேதா இதி ஏகம் பிரதானம் சூத்திரம் வித்யதே பிரத்யாஹார நிர்மாண சூத்திரம். அத்ர பதத்ரயம் வித்யதே. இதானிம் மயா ஏதத் சூத்திரம் ஆரம்பியதே சேத் பிரத்யாஹாரஸ்ய நிர்மாண விஷய வக்தவ்யம் பவதி தத்து தஸ்ய வியாக்யானம் கிஞ்சித் அதிகம் சமயம் ஸ்வீகரோதி அதஹ அத்ரைவ உபஸ்தாபயாமி அத்ரைவ விராமம் ஸ்வீகரோமி. அத்ய கிமபி பிரஷ்னாஹ சந்தி சேத் கிருபையா பிருச்சந்து. அஹம் ஏகம் காரியம் கரோமி அத்ய டிஸ்கஷன் மோட் இதி ஏகம் அஸ்தி தன் மத்யே ஸ்தாபயிதும் பிரயத்னம் கரோமி. அத்ர கிமபி உச்சதே டிஸ்கஷன் மோட் வில் பி ரீ எனேபிள்ட் இஃப் யுவர் அட்டெண்டன்ஸ் டிராப்ஸ் பிலோஸ் 25 அட்டெண்டீஸ். ஓஹோ கிமபி உச்சதே அஸ்து டைப் கிரியதாம் யதி பிரஷ்னஹ அஸ்தி சேத் டைப் குர்வந்து அஹம் அவசியம் பிரஷ்னம் உக்த்வா உத்தரம் தாஸ்யாமி. தத்ர கக்ஷாத்ரயஸ்ய ஸ்லைட் ஸ்தாபிதம் மயா ஆடியோ பிரதம கக்ஷாயாஹ ஏவ ஸ்தாபிதம் த்விதீய த்ருதீயஸ்ய ஆடியோ கிஞ்சித் ஃபைல் சைஸ் கிஞ்சித் அதிகம் அஸ்தி 75 MB அஸ்தி அதஹ அஹம் அவசியம் ஸ்தாபயாமி தினத்வயே தத் ஃபைல் சைஸ் கதம் நியூனீகரணீயம் இதி மயா திரஷ்டவ்யம். 75 MB ஃபைல் மயா 5 MB மத்ய கரணீயம் பவதி. இதானிம் பாடத்ரயஸ்ய ஸ்லைட்ஸ் தூ லப்யதே தத் தத்து சான்ஸ்கிரிட் ஃப்ரம் ஹோம் டாட் இன் மத்ய அஸ்தி. கோபாலகிருஷ்ணன் மகோதயः வததி ஆடாசிட்டி உபயோகம் கரோத்து. ஆடாசிட்டி ஏவ மயா உபயோக கிரியதே. ததா கிம் பவதி இத்யுக்தே ஆடாசிட்டி மத்யே 128 KBPS KBPS மத்யே எக்ஸ்போர்ட் கிரியதே சேத் ஃபைல் சைஸ் 50 MB ஆகச்சதி. வெபினார் ஃபைல் மிலதி சேத் சமீச்சீனம் பவதி. வெபினார் ஃபைல் பிராயஹ நமிலதி யதோஹி வெபினார் ஃபைல் பெய்ட் பவதி
अस्माभिः गोपालकृष्णन् महोदयः 16 केबिपिएस् करोतु इति वदति, तद् अवश्यं ट्रै करोमि महोदय. अद्य सौम्या भगिनी अपि उक्तवती 16 केबिपिएस् मध्ये भवति इति, तत् कृत्वा अवश्यं श्वः लोड् करोमि. श्वः सायंकाले प्राप्यते, लोड् कृत्वा मेल् अपि प्रेषयामि. गोपाल महोदय, अहम् अवश्यं श्वः अभ्यन्तरे सर्वं लोड् करोमि. अद्यतनस्य फैल् अपि परश्वः कक्षापूर्वं लोड् भविष्यति. कृपया यदि दोषाः सन्ति चेत्, मम वाक्य व्याकरणदोषाः सन्ति चेत् कृपया प्रश्नः अस्ति चेत् सहायं कर्तुं शक्नोमि. गोपालकृष्णन् महोदय, अवश्यं भवतः ईमेल् ऐडि अस्ति मम समीपे, यतोहि भवता रिजिस्टर् कृतम् इति भाति. रेकार्डिङ्ग् सहित PDF फैल् अपि पुनः मिलति चेत् सुलभं भवति. हा, अवश्यं द्वयमपि लभ्यते, रेकार्डिङ्ग् फैल् अपि लभ्यते, PDF फैल् अपि लभ्यते. सर्वेभ्यः राम राम राम. शुक्रवासरे 9 वादने मिलामः.